अस्मिन् कुम्भे बृहस्पति ग्रहं यायामि।
देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्। ॐ सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि तन्नो गुरुप्रचोदयात्। अस्मिन् कुम्भे बृहस्पतिग्रहमावाहयामि।
अस्मिन् कुम्भे शुक्रग्रहं यायामि।
हिमकुन्दमृणालाहं दैत्यानां परमं गुरुं सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्। ॐ रजताभाय विद्महे भृगुसुताय धीमहि तन्नः शुक्रप्रचोदयात्।
अस्मिन् कुम्भे शुक्रग्रहमावाहयामि।
अस्मिन् कुम्भे शनैश्चरग्रहं ध्यायामि।
नीलाञ्जनसमाभासं हरिपुत्रं यमाग्रजम् छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम्। ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दप्रचोदयात्।
अस्मिन् कुम्भे शनैश्चरग्रहमावाहयामि।
अस्मिन् कुम्भे राहुग्रहं ध्यायामि।
अर्धकायं महावीर्यं चन्द्रादित्यविवर्धनं सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्। ॐ शूकदन्ताय विद्महे उग्ररूपाय धीमहि तन्नो राहुः प्रचोदयात्।
अस्मिन् कुम्भे राहुग्रहमावाहयामि।
अस्मिन् कुम्भे केतुग्रहं ध्यायामि।
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकं रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्। चित्रवर्णाय विद्महे सर्वरूपाय धीमहि तन्नः केतुः प्रचोदयात्।
अस्मिन् कुम्भे केतुग्रहमावाहयामि।
प्राणप्रतिष्ठा अस्य श्रीप्राणप्रतिष्ठा महामन्त्रस्य ब्रह्मविष्णुमहेश्वरऋषयः ऋग्यजुःसामाथर्वाणि छन्दांसि सकलजगत्सृष्टिस्थितिसंहारकारिणि प्राणशक्तिः परा देवता आं बीजम् ह्रीं शक्तिः क्रों कीलकम् आम् अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां नमः क्रों मध्यमाभ्यां नमः आम् अनामिकाभ्यां नमः ह्रीं कनिष्ठिकाभ्यां नमः क्रों करतलकरपृष्ठाभ्यां नमः आम् हृदयाय नमः ह्रीं शिरसे स्वाहा क्रों शिखायै वषटे आं कवचाय हुं ह्रीं नेत्रत्रयाय वौषटे क्रों अस्त्राय फटे भूर्भुवः सुवरोमिति दिग्बन्धः ध्यानम्
रक्ताम्बोधिस्सपोतोल्लसदरुणसरोजाधिगूढाकराब्जैः पाशम् गोदण्डमिक्षोद्भवमणिगुणमभ्यङ्कुशम् पञ्चबाणान् बिभ्राणाशृक्कपालम् त्रिनयननसितापीनवक्षोरुहाड्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः
आम् ह्रीं क्रों
क्रों ह्रीं आम् य
र
ल व श ष स हो हंसः सोऽहम् सोऽहम् हंसः अस्याम् मूर्तौ जीवस्तिष्ठतु अस्याम् मूर्तौ सर्वेन्द्रियाणि मनस्त्वचक्षुश्रोत्रजिह्वा घ्राणाः वाक्पाणिपादपायोपस्थाख्यानि प्राणापानो व्यानोदानसमानाः इहागत्य सुखम् चिरम् तिष्ठन्तु स्वाहा
असूनीते पुनरस्मादु चक्षुः पुनः प्राणमिगनो आधेहि भोगम् जोक्पश्येम सूर्यमुच्चरन्तमनुमते मृणया न स्वस्ति आवाहितो भव
स्थापितो भव सन्निहितो भव सन्निरुद्धो भव अवकुण्ठितो भव सुप्रीतो भव सुप्रसन्नो भव सुमुखो भव वरदो भव प्रसीद प्रसीद स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् तावत्त्वम् प्रीतिभावेन कुम्भेऽस्मिन् सन्निधिम् कुरु।
प्राणप्रतिष्ठाकाले मधुपर्गम् निवेदयामि उपचारपूजा
अर्घ्यम् व्यक्ताव्यक्तस्वरूपाय वास्तुपुरुषाय ते नमः मया निवेदितो भक्त्या अर्घ्योऽयम् प्रतिगृह्यता वास्तुपुरुषाय नमः अर्घ्यम् समर्पयामि पाद्यम् वास्तुदेव नमस्तेऽस्तु नरकार्णवतारक पाद्यम् गृहाण देवेश मम सौख्यम् विवर्धय वास्तुपुरुषाय नमः पाद्यम् समर्पयामि आचमनीयम् मन्दाकिन्यास्तु यद्वारि सर्वपापहरम् शुभम् तदिदम् कल्पितम् देव सम्यकाचम्यताम् त्वया वास्तुपुरुषाय नमः आचमनीयम् समर्पयामि स्नानम् स्नानम् पञ्चामृतैर्देव गृहाण पृथिवीपते अनाथनाथ सर्वज्ञ गीर्वाणप्रणतिप्रिय वास्तुपुरुषाय नमः स्नानम् समर्पयामि वस्त्रम् वेदसूक्तसमायुक्ते यज्ञसामसमन्विते गृहसौख्यप्रदे देव वासनम् प्रतिगृह्यता वास्तुपुरुषाय नमः वस्त्रम् समर्पयामि यज्ञोपवीतम् ब्रह्मविष्णुमहेशानाम् निर्मितम् ब्रह्मसूत्रकम् यज्ञोपवीतदानेन क्रीयताम् वास्तु स्वामिने वास्तु पुरुषाय नमः यज्ञोपवीतम् समर्पयामि गन्धम् श्रीकण्ठम् चन्दनम् दिव्यम् गन्धाढ्यम् सुमनोहरम् विलेपनम् सुरश्रेष्ठ चन्दनम् प्रतिगृह्यता वास्तु पुरुषाय नमः गन्धान्धारयामि
पुष्पालङ्करणम्
मल्लिकादिसुगन्धीनि मालत्यादीनि वै प्रभो मया कृतानि पूजार्थम् पुष्पाणि प्रतिगृह्यता वास्तु पुरुषाय नमः पुष्पमालाम् समर्पयामि पुष्पैः पूजयामि
ॐ वास्तु पुरुषाय नमः
ॐ वास्तु पुरुषाय नमः
ॐ महाकायाय नमः
ॐ महाकायाय नमः
ॐ कृष्णाङ्गाय नमः
ॐ कृष्णाङ्गाय नमः
ॐ अरुणाक्षाय नमः
ॐ अरुणाक्षाय नमः
ॐ वस्त्रैकधारणाय नमः
ॐ वस्त्रैकधारणाय नमः
ॐ विवाहवे नमः
ॐ विवाहवे नमः
ॐ वज्रदेहाय नमः
ॐ वज्रदेहाय नमः
ॐ सुरासुराकाराय नमः
ॐ सुरासुराकाराय नमः
ॐ एकवक्त्राय नमः
ॐ एकवक्त्राय नमः
ॐ बर्बराङ्गाय नमः
ॐ बर्बराङ्गाय नमः
ॐ दुर्धराय नमः
ॐ दुर्धराय नमः
ॐ बिभ्रश्मश्रुशिरोरुहाय नमः
ॐ बिभ्रश्मश्रुशिरोरुहाय नमः
ॐ ऐशान्यस्थितमस्तकाय नमः
ॐ ऐशान्यस्थितमस्तकाय नमः
ॐ क्रुद्धाय नमः
ॐ क्रुद्धाय नमः
ॐ पूर्परीकृतजानुद्वयाय नमः
ॐ पूर्परीकृतजानुद्वयाय नमः
ॐ कृताञ्जलिपुटाय नमः
ॐ कृताञ्जलिपुटाय नमः
ॐ कल्याणाय नमः
ॐ कल्याणाय नमः
ॐ अधोवक्त्राय नमः
ॐ अधोवक्त्राय नमः
ॐ शिवनेत्रोद्भवाय नमः
ॐ शिवनेत्रोद्भवाय नमः
ॐ घोररूपाय नमः
ॐ घोररूपाय नमः
ॐ वास्तुशास्त्राधिपतये नमः
ॐ वास्तुशास्त्राधिपतये नमः
ॐ चतुष्षष्टिमण्डलाध्यक्षाय नमः
ॐ चतुष्षष्टिमण्डलाध्यक्षाय नमः
ॐ धरणीसुताय नमः
ॐ धरणीसुताय नमः
ॐ बलिप्रियाय नमः
ॐ बलिप्रियाय नमः
ॐ रक्तकेशाय नमः
ॐ रक्तकेशाय नमः
ॐ वास्तुमण्डलमध्यकाय नमः
ॐ वास्तुमण्डलमध्यकाय नमः
ॐ वास्तुदेवाय नमः
ॐ वास्तुदेवाय नमः
ॐ त्रैलोक्यरक्षकाय नमः
ॐ त्रैलोक्यरक्षकाय नमः
ॐ त्रात्रे नमः
ॐ त्रात्रे नमः
ॐ वरदाय नमः
ॐ वरदाय नमः
ॐ वाञ्छितार्थप्रदाय नमः
ॐ वाञ्छितार्थप्रदाय नमः
ॐ भक्तानामभयङ्कराय नमः
ॐ भक्तानामभयङ्कराय नमः
ॐ भक्तवत्सलाय नमः
ॐ भक्तवत्सलाय नमः
ॐ शुभाय नमः
ॐ शुभाय नमः
ॐ होमार्चनप्रीताय नमः
ॐ होमार्चनप्रीताय नमः
ॐ प्रभवे नमः
ॐ प्रभवे नमः
ॐ उदुम्बरसमित्रियाय नमः
ॐ उदुम्बरसमित्रियाय नमः
ॐ मरीच्यान्नप्रियमानसाय नमः
ॐ मरीच्यान्नप्रियमानसाय नमः
ॐ दिक्पालकपरिभूषिताय नमः
ॐ दिक्पालकपरिभूषिताय नमः
ॐ गृहनिर्माणसहायकाय नमः
ॐ गृहनिर्माणसहायकाय नमः
ॐ गृहदोषनिवर्तकाय नमः
ॐ गृहदोषनिवर्तकाय नमः
ॐ कुलिशायुधभूषणाय नमः
ॐ कुलिशायुधभूषणाय नमः
ॐ कृष्णवस्त्रधराय नमः
ॐ कृष्णवस्त्रधराय नमः
ॐ आयुर्बलयशोदाय नमः
ॐ आयुर्बलयशोदाय नमः
ॐ माषबलिप्रियाय नमः
ॐ माषबलिप्रियाय नमः
ॐ दीर्घनेत्राय नमः
ॐ दीर्घनेत्राय नमः
ॐ निद्राप्रियाय नमः
ॐ निद्राप्रियाय नमः
ॐ दारिद्र्यहरणाय नमः
ॐ दारिद्र्यहरणाय नमः
ॐ सुखशयनदाय नमः
ॐ सुखशयनदाय नमः
ॐ सौभाग्यदाय नमः
ॐ सौभाग्यदाय नमः
ॐ वास्तोष्पतये नमः
ॐ वास्तोष्पतये नमः
ॐ सर्वागमस्तुताय नमः
ॐ सर्वागमस्तुताय नमः
ॐ सर्वमङ्गलाय नमः
ॐ सर्वमङ्गलाय नमः
ॐ वास्तुपुरुषाय नमः
ॐ वास्तुपुरुषाय नमः
नानाविध परिमल पत्रपुष्पाणि समर्पयामि
धूपम्
वनस्पतिरसोद्भूत गन्धाढ्यो गुग्गुलुर्वरः आग्रेयः सर्वदेवानाम् धूपोऽयम् प्रतिगृह्यताम् वास्तुपुरुषाय नमः धूपमाग्रापयामि
दीपम्
साज्यम् त्रिवर्तिसंयुक्तम् वह्निना योजितम् मया दीपम् गृहाण वास्तीश त्रैलोक्यतिमिरापः वास्तुपुरुषाय नमः दीपम् दर्शयामि
नैवेद्यम्
घृतपक्वहविष्यान्नम् पायसम् च सुगर्गरम् नानाविधम् च नैवेद्यम् भोवास्तो प्रतिगृह्यताम् वास्तुपुरुषाय नमः नैवेद्यम् समर्पयामि
आचमनीयम्
सर्वपापहरम् दिव्यम् गाङ्गेयम् निर्मलम् जलम् आचमनम् मया दत्तम् गृह्यताम् वास्तुपालक वास्तुपुरुषाय नमः निवेदनानन्तरम् आचमनीयम् समर्पयामि
ताम्बूलम्
लवङ्गकर्पूरयुतम् ताम्बूलम् सुरपूजितम् प्रीत्या गृहाण वास्त्वीश गृहसौख्यम् विवर्धय वास्तुपुरुषाय नमः ताम्बूलम् समर्पयामि
कर्पूरनीराजनम्
चतुर्वर्तिसमायुक्तम् घृतेन च सुपूजितम् नीराजनेन सन्तुष्टो भवेत् वास्तोष्पतिः सदा ॐ राजाधिराजाय प्रसज्ञसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः वास्तुपुरुषाय नमः कर्पूरनीराजनम् सन्दर्शयामि
मन्त्रपुष्पम्
ॐ योपाम् पुष्पम् वेद पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपाम् पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति वास्तुपुरुषाय नमः मन्त्रपुष्पम् समर्पयामि
प्रार्थना
आसीत् पूर्वम् महादैत्यो वास्तुर्यज्ञापहारकः स देवैर्बहुकालेन युद्धे हत्वा महीतले निपात्य बहुभिर्देवैर्निबद्धश्चतुरस्रगः ईशाने मस्तकम् यस्य निर्वृत्ये पादसम्पुटम् जानुनो कूर्परीकृत्य बाहुयुग्मम् तथैव च वायुप्राच्योस्तनो जानुम् हृदये चाञ्जलिस्तथा पदीकृत्य च तस्योर्ध्वम् स्वयम् मुक्ताः सुराः स्थिताः पूजितोऽसि मया वास्तो होमाद्यैरर्चनैः शुभैः प्रसीद पाहि विश्वेश देहि मे गृहजम् सुखम् नमस्ते वास्तु पुरुष भूषय्याभिरत प्रभो मद्गृहम् धनधान्यादि समृद्धम् कुरु सर्वदा सशैलसागराम् पृथिवीम् यथा महसि मूर्धनि तथा माम् महकल्याण सम्पत्सन्ततिभिः सह यथा मेरुगिरे शृङ्गम् देवानामालयः सदा तथा ब्रह्मादिदेवानाम् गृहे मम स्थिरो भव वास्तुमर्त्यो महाकाय कृष्णाङ्गो रक्तवचनः एकवक्त्रो द्विबाहुश्च बर्बराङ्गश्च दुर्धरः वज्रदेहो सुराकारो बिभ्रश्मशृशिरोरुहः ऐशान्यमस्तकः क्रुद्धो नैऋत्याम् गतपादुकः आग्नेय्याम् वायुदिग्भागे जानुपूर्परशायिकः कृदञ्जलिरथो वक्त्रस्थिरवास्तु प्रकीर्तितः वास्तुदेवो महादेव रक्षत्रैलोक्यरक्षक भक्तानामभयङ्कर्ता त्राता भवभवार्णवम् वरदस्त्वम् वरम् देहि वाञ्छितम् वाञ्छितार्थद अनेन सफलाघ्येन फलदोऽस्तु सदा मम वास्तुपुरुषाय नमः प्रार्थनाम् समर्पयामि
वास्तुशान्तिमन्त्राः
वास्तोष्पदे प्रतिजानीत्यस्मान् द्वावेशो अनमीवो भवानः यत्त्वे महे प्रतितम् लोजुषश्वशन्न जेधि द्विपदे सञ्चतुष्पदे वास्तोष्पते शक्मजातगुंसजाते सक्षीमहिरन्वजागातुमत्या आवह क्षेममुदयोगे वरण्यो यूयम् पात स्वस्तिभिः सदा नः वास्तोष्पते प्रतरणो नयेहि गोभिरश्वेभिरिन्दो अजराशस्ते शक्ये स्यामपि देव पुत्रान् प्रतिनोजुषस्व अमीवः वास्तोष्पते विश्वारूपाण्याभिशन् सखा सुषेवजेधिनः यद्भूमे क्रूरम् तदितो हरामि पराचीन्निरतिम् निर्वाहयामि इदग्श्रेजो वसा नमागन्मदे वागो वदश्वावदिदमस्तु प्रभूमा स्योणा पृथिवी भवानक्षरा निवेशनी यच्च न शर्म सप्रथा आह इहैव तिष्ठन्निमिता तिल्वला स्यादिरावती मध्ये ताल्पस्य तिष्ठान्मा त्वा प्रापन्नघायवः आत्वा कुमारस्तरुण आवत्सा सहसा सह आत्वा कुमारः कुम्बा आदध्नः कलशीरजन् ऋतेनस्तूनावधिरोहपुंशोऽग्रो विराजन्नपशे दशत्रून् ब्रह्मचते क्षत्रम् च पूर्वे स्तूने अभिरक्षतु यज्ञस्य दक्षिणाश्च दक्षिणे स्तूने अभिरक्षतु इषश्चोर्जश्च अपरे स्तूने अभिरक्षतु मित्रश्चोर्जश्च उत्तरे स्तूने अभिरक्षतु धर्मस्ते स्तूनाराजश्रीस्ते स्तूपः पृथिवी शान्तिरन्तरिक्षगुं शान्तिर्द्यौ शान्तिर्दिश शान्तिः अवान्तरदिशाशान्तिरग्निःशान्तिर्वायुःशान्तिः आदित्यशान्तिश्चन्द्रमाशान्तिर्नक्षत्राणि शान्तिरापश्शान्तिः ओषधजशान्तिर्वनस्पतजशान्तिर्द्यौ शान्तिः अजाशान्तिरश्वशान्तिः पुरुषशान्तिब्रह्मशान्तिः ब्राह्मणशान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः आभिर्गेर्भिरयदतो लघूनमाप्यायय हरिवो वर्धमानः यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अथ ते स्याम ब्रह्म प्रावादिष्मतन्नो माहासीत् ॐ शान्तिश्शान्तिश्शान्तिः यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये प्रदक्षिणम् करोमि त्वा प्रसीदधरणीपते वास्तुपुरुषाय नमः प्रदक्षिणनमस्कारान् समर्पयामि यज्ञेन यज्ञमयजन्त देवाः तानि सर्वाणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अस्मात्कुम्भात् आवाहिताभ्यः सर्वाभ्यो देवताभ्यः वास्तुपुरुषाय नमः यथास्थानम् प्रतिष्ठापयामि
अरिष्ट अस्माकम् वीराः सन्तु मापदासेचि मेधनम् शिवगुम् शिवम् शुभगुम् शुभम् भूद्भुवः सुवः ॐ शान्तिः शान्तिः शान्तिः।